ततश्च द्वादशे मासे चैत्रे नवमिके तिथौ नक्षत्रे दिति दैवत्ये स्वोच्चसंस्थेषु पञ्चसु ग्रहेषु कर्कटे लग्ने वाक्पता विन्दुना सह प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतं कौसल्याजनयद्रामं सर्वलक्षणसंयुतं विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकवर्धनं कौसल्याशुशुभेतेन पुत्रेण अमिततेजसा यथावरेण देवानाम् अदितिर्वज्रपाणिना भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः अथ लक्ष्मणशत्रुघ्नो सुमित्रा जनयत्सुतौ सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ पुष्ये जातस्तु भरतः मीनलग्ने प्रसन्नधीः सार्पे जातौ च सौमित्री कुलीरेभ्युतिते रवौ राज्ञः पुत्राः महात्मानः चत्वारः जज्ञिरे पृथक् गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः जहुःकलञ्च गन्धर्वाः ननुतुश्चाप्सरोगणाः देवदुन्दुभयो नेतुः पुष्पवृष्टिश्च खाच्युता उत्सवश्च महानासीत् अयोध्यायां जनाकुलः रथ्याश्च जनसंबाधाः नटनर्तकसङ्कुलाः गायनैश्च विराविण्यः वादनैश्च तथा परैः विरेजुः विपुलास्तत्र सर्वरत्नसमन्विताः प्रदेयांश्च ददौ राजां सूतमागधवन्दिनां ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः अतीत्यैकादशाहन्तु नामकर्म तथा करोत् ज्येष्ठं रामं महात्मानं भरतं कैकेयीसुतं सौमित्रीं लक्ष्मणमिति शत्रुघ्नमपरं तथा वसिष्ठः परमप्रीतः नामान् कृतवांस्तदा ब्राह्मणान् भोजयामास पौराञ्जानपदानपि अददाद् ब्राह्मणानां च रत्नौघम् अमितं बहु।